नमस्सर्वेभ्यः अद्य कृदन्तवर्गे पञ्चविंशः पाठः अक्टोबर् मासस्य एकविंशः दिनाङ्कः. अद्य वयं क्तवतु प्रत्ययस्य हलन्तधातूनां रूपाणि पश्यामः. योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्तां सञ्जीवयत्यचिदशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. क्तवतु इत्येषः प्रत्ययः रूपेषु तवत् इति श्रूयते. अयं भूतकालार्थकः कर्त्रर्थकः प्रत्ययः. अर्थात् क्तवतु प्रत्ययस्य अर्थद्वयम्. एकः अर्थः भूतकालः इति, द्वितीयः अर्थः कर्ता. भूतकाले यः किमपि कार्यं करोति तं बोधयति अयं प्रत्ययः. अतः पठितवान् इत्युक्ते भूतकाले यः पठनरूपं कार्यं कृतवान् सः करोति सः इत्यर्थः. एवं गतवान् सुप्तवान् इत्यादीनि रूपाणि भवन्ति. सर्वेभ्यः धातुभ्यः अयं प्रत्ययः भवति. त्रिषु लिङ्गेषु रूपाणि सन्ति. पुल्लिङ्गे तकारान्तः शब्दः गतवत् शब्दः, गतवान् गतवन्तौ गतवन्तः इत्येवं रूपाणि भवन्ति. स्त्रीलिङ्गे ईकारान्तः भवति. गतवती गतवत्यौ गतवत्यः इति नदीशब्दवत् रूपाणि भवन्ति. नपुंसकलिङ्गे पुनः तकारान्तः भवति. गतवत् गतवती गतवन्ति इति रूपाणि भवन्ति. सर्वासु विभक्तिषु सर्वेषु वचनेषु प्रयोगः शक्यते. यद्यपि सामान्यतः अस्माभिः प्रथमाविभक्तौ प्रयोगः क्रियते. सः ग्रामं गतवान् इत्युक्ते सः प्रथमाविभक्तेः प्रयोगः. किन्तु अन्यासु विभक्तिषु अपि प्रयोगः भवति. विशिष्य यदा काव्येषु पश्यामः तदा अन्यविभक्तिरूपाणामेव प्रयोगः अधिकतया दृश्यते. यथा वनं गतवता रामेण राक्षसाः हताः, पाठं पठितवते बालाय पारितोषिकं देहि इत्येवम् अन्यासु विभक्तिषु कर्तुः विशेषणत्वेन प्रयोगः क्रियते क्तवतु प्रत्ययान्तस्य. तत्र वयं गतवर्गे अजन्तधातूनां रूपाणि कथं भवन्ति इति दृष्टवन्तः. एतदपि ज्ञातवन्तः यत् क्तवतु प्रत्ययस्य विषये नियमाः अधिकाः. विशिष्य इडागमस्य विषये नियमाः भवन्ति. धातोः इट् भवति वा न वा विकल्पेन भवति वा इति. गुणविषये नियमाः सन्ति. सामान्यतः गुणः न भवति, किन्तु क्वचित् गुणः भवति. पुनः क्तवतु इत्यत्र तवत् प्रथमः यः तकारः तस्य स्थाने केचन आदेशाः क्रियन्ते. यथा छिन्नवान् इत्यत्र तीर्णवान् इत्यत्र नकारादेशः भवति, पक्ववान् इत्यत्र वकारादेशः इत्येवम् आदेशाः अपि बहुधा क्रियन्ते. अतः रूपसिद्धिम् अस्मिन् वर्गे वयं ज्ञातुं न शक्नुमः. प्रसिद्धानां धातूनां रूपाणि साक्षात् जानीमः. सो वी विल् नाट् गोयिङ्ग् टु द रूल्स् आफ् वै डिफरेण्ट् फार्म्स् गेट् ऐ मीन् डिफरेण्ट् धातूस् गेट् डिफरेण्ट् फार्म्स् एण्ड् आल्. वी आर् सिम्प्ली लर्निङ्ग् द फार्म्स् टु प्राक्टिस् द फार्म्स् गेटिङ्ग् फेमिलियर् वित् द फार्म्स् आफ् द डिफरेण्ट् धातूस् एण्ड् यूसिङ्ग् देम् इन् सेण्टेन्सेस्. सो तया दृष्ट्या अजन्तधातूनां रूपाणि गतवर्गे अधीतानि. अकारान्तधातुषु सामान्यतः तवत् इत्यस्य योजनं भवति. ज्ञा ज्ञातवान्, ध्यै एजन्तः धातुश्चेत् अकारान्तः भवति, ध्या ध्यातवान्, स्ना स्नातवान् इति. केचित् विशेषाः सन्ति, यथा दा इत्यस्य दातवान् इति न भवति, अपि तु दत्तवान्. एवं स्था स्थितवान्, गै गा इति भवति, तत्र गीतवान्. एवं पा पिबति इति धातुः, तत्र पीतवान्. निद्राणवान्, द्रा इति धातोः द्राणवान् इति भवति. त्रा त्रै धातुः, त्रा इति भवति, तत्र विकल्पेन णत्वं भवति. त्रातवान् त्राणवान् इति रूपद्वयं भवति. एवं घ्रातवान् घ्राणवान् इति रूपद्वयम्. विशेषाः ज्ञातव्याः. इकारान्तेषु कोऽपि विशेषः नास्ति. साक्षात् क्तवतु इत्यस्य योजनं जि जितवान्, नी नीतवान्. धातुद्वयं सेट् धातु भवति अस्माभिः अधीयमानेषु धातुषु. शी शयितवान्, डि डयितवान् इति भवति, तत्र इडागमः भवति. अन्यत्र तु साक्षात् प्रत्ययस्य योजनमेव. एवम् उकारान्तेषु अपि विशेषः नास्ति. उकारान्तेषु ऋकारान्तेषु उभयत्र साक्षात् प्रत्ययस्य योजनम्. श्रु श्रुतवान्, भू भूतवान्, कृ कृतवान्, हृ हृतवान् इति. ऋकारान्तेषु तु कीर्णवान्, कृ धातुः कीर्णवान्, जृ धातुः जीर्णवान्, तृ धातुः तीर्णवान् इत्येवं क्रमेण रूपाणि भवन्ति. अन्ते गतवर्गस्य अन्ते कश्चित् अभ्यासः दत्तः, कर्तुं समयः नासीत्, अतः स्वीयं वाक्यं रचयत इति. समभ्यासं दृष्ट्वा अद्यतनं पाठं पठामः. ये वक्तुमिच्छन्ति कृपया हस्तम् उत्तोलयन्तु. पिबति इत्यस्ति, तस्य क्तवतु प्रत्ययान्तम् उपयुज्य वाक्यं रचनीयं भवति. हरमन्दर सिंह महोदय.
नमो नमः. अहं जलं पीतवान्.
अहं जलं पीतवान् अथवा पीतवती. शिशुः क्षीरं पीतवान्. जिघ्रति, स्मेल्स्.
घ्राणवान्, घ्राणवान्
सम्यक्.
अहं पाकः घ्राणवान्.
पाकं घ्राणवान्, पाकं घ्राणवान् अथवा घ्रातवान्. सम्यक्. द्रौपदी सौगन्धिका पुष्पं घ्रातवती और् घ्राणवती, रूपद्वयं भवति. घ्रातवान् अथवा घ्राणवान्. धन्यवादाः. सो द्रौपदी स्मेल्ट् द फ्लार् कॉल्ड् सौगन्धिका, अ वेरी फ्रेग्रेंट फ्लार्. सो अहं पाकं घ्रातवान्, सो ऐ स्मेल् कुकिंग् इत्यर्थः. और् ऐ स्मेल्ट् कुकिंग् इन् द भूतकाल. ओके. रामप्रिया. रामप्रिया भगिनी. न श्रूयते. Nandakumar Mohanaya.
Suprabhatam, Namaste.
Namaste.
I had sent a small story of a Vyakara using all these things to your. Yeah, anyway,
I'll have a look at it. I'll get back to you. Yeah.
Now, Srinoti.
Chinoti.
Balakaha Vidyalayat Pathanandaram Pratyagamana Samye Tasya Pustakayani Tilutva
Chitavan
Chitavan
Balakaha Pratyagamana Samye Pustakani Chitavan. So he collected his books while returning, ityarthaha. Bhaktaha pushpani chitavantaha. So the devotees plucked or collected flowers for worship. Shrinoti.
Aham Balamurli Krishnaya Sangeetam.
Krishnasya Sangeetam.
Shrutavan.
Shrutavan. Aham Balamurli Krishnasya Sangeetam Shrutavan. Vayam Madhuram Sangeetam Shrutavantaha Athava Shrutavatyaha. Samyak. Dhanyavadaha. Padmanabhan Mohanaya.
Tarati. Hanuman Salabhena Samudram Tirnavan.
Hanuman
Salabhena Samudram Tirnavan.
Salabhataya Samudram Tirnavan. Crossed it easily. Tau Naukaya Nadim Tirnavan Tau. Dharati.
Tapasaha Kashaya Vastrani Dhritavantaha.
Dhritavantaha. Samyak. Tapasaha kashaya vastrani dhritavantaha. So the ascetics wore saffron or ochre robes. Nartaki nupuram dhritavati. The dancer wore the anklet. Dhanyavadaha. Agre anukaroti. Ouch. Samyatam. Anukaroti. Venkateshwaran Mohanaya, you have to unmute yourself.
Yes, sir. Namaste.
Madam,
anukaroti means translation.
No, that's to imitate.
No, to imitate. To imitate. Mama Bhashyam Rameshaha Anukritavan.
Samyak. Mama. Bhashyam or Bhashyam Ramesh. Imitated by.
Imitated by. Then. Pratinayate. Pratinayate is nomination.
To take back. Nayati.
Pratinayate. Mama Guru. Pratinayitavan.
Pratinitavan.
Pratinitavan. Pustakam Pratinitavan.
Pustakam Pratinitavan.
Pustakam Pratinitavan.
Samyak. So, Mama Guruhu Pustakam Pratinitavan. So, Patravahakaha Patram Pratinitavan. So, the postman took back the letter. Maybe there was nobody for delivery. So, that's from context why. But it is to take back. Okay. Ashtir Prashnaha. Rameshena or Rameshaha Anukritavan. Rameshaha Anukritavan. Ramesha imitated my speech. So, Mama Bhashanam Rameshaha Anukritavan. Okay. Next. Anya Gepi Vaktum Ichchanti. Ramapriya Bhagini.
Suyate kila.
Ah.
Vikrinati apane sarvani vastuni vikrita vantaha.
Apane sarvani vastuni vikrita vantaha. Sammik.
Parajayate. Kauravaha kurukshetra yudde parajita vantaha.
Parajayate means to defeat somebody else.
Pandavaha kaurava senam kurukshetra yudde parajita vantaha.
Samyak. Pandavaha kaurava senam parajita vantaha. Okay, so parajayate is to conquer somebody or to defeat somebody. Yatha arjunaha karanam parajitava. Samyak. Shridhar Mahode.
Namaste.
Samyatam.
Anubhavati. Mitra Militva Aham Ananda Anubhutavan.
Aham Anandam Anubhutavan. Mitram Militva. So having met my friend, I experienced happiness. Ha. Nidrati.
Alpakalameva Nidranavan.
Yaha Alpakalameva Nidranavan. Sammek. So Kumbhakarnaha tu Chiram Nidranavan. Bahukalam ityarthaha. Dhanyavada. Agre Vayam. Adya halantadhatunam ktavatu pratyantarupani janimaha. Tatra set dhatavaha evavanti, yatra idagamaha bhavati, tatra samanyataha rupam katham bhavati iti pashyamaha. Archi, architavan, archati, architavan, ikshate, pashyati ityarthaha, ikshitavan. Khadati, khadati, khaditavan. Kridati, kriditavan. Likhati, likhitavan. Milati, militavan. Kupyati, kupitavan. Roditi, ruditavan. So as you can see, there is no guna. Right? So normal cases you will find lekhanam, lekhaniyam, ityadi. Atratu gunaha na bhavati. So, likh likhitavan, milu militavan, kup kupitavan, rud ruditavan, kit pratyaha ktavatu iti, ataha gunaha nabhavati, dhatuhu I tavan tavati tavat iti pratyasya yojanam tavadeva bhavati. Samanyataha evameva bhavati. Riktasthanam puraniyam, dhatuhu diyate tasya ktavatvantarupam. Maktavyam evaktum icchanti Swaminathan Mahodaya
Balaha Patham Patitavan.
Patitavan. Balaha Patham Patitavan.
Hanuman Samudram Langitavan.
Langitavan. Hanuman Samudram.
Samudram Langitavan. Balikaha Kandukam Kriditavantaha.
Kridita
Antaha.
Balikaha
Kridita Vantyaha.
Vatyaha, kridita vatyaha. Kridita vatyaha. Balikaha, kridita vatyaha. Dhanyavadaha. Sundara Raman Mahodaya. You have to unmute yourself.
Sweteva. Shruyateva.
Shruyateva dat.
Shruyate. Vayam Ramayanam Natha There is some other noise coming in this. I don't know where from.
Is it? But it is clear for us. You can tell.
Is it okay now?
Yes.
Hello, can you hear me?
Yeah. We can hear you.
Okay. Vayam Ramayanam Natitavantaha.
Vayam Ramayanam Natitavantaha.
Sa Uchaihi Hasitavati.
Sa Uchaihi Hasitavati.
Lavakushau Valmikim Vanditavantau.
Lavakushau Valmikim Vanditavantau. Samyak. अग्रे समानः अभ्यासः मलकोंडय्य महोदय
हरि ओम सुप्रभातम् गणेशः व्यासोक्तान् श्लोकान् लिखितवान्
सो गणेश रोट द श्लोकास व्हिच वर टोल्ड बाय व्यास
माता पुत्रं रक्षितवती
रक्षितवती माता रक्षितवती
पांडवाः कौरवेभ्यः कुपितवन्तः
कुपितवन्तः पांडवाः कौरवेभ्यः कुपितवन्तः
कुपितवन्तः
सम्यक् धन्यवाद नेक्स्ट Rao,
good morning. Can you hear me? Prekshakaha Najakam Vichitavantaha. Vichitavantaha. Sisupalaha Krishnam Ninditavan.
Ninditavan.
Naryau Sarpat. Bhitavatyau.
Bhitavatyau. Samyak. So, under normal circumstances, for the set dhatu, it is very simple. You just add the ikara and then add the pratyaya with no changes on the dhatu. Nijantaha sarve dhatavaha api set eva bhavanti. So, all the Nijanta Dhatus will also get set. In that case, the form will be the same as the Nijanta. Like if you have Chorayati, Choritavan. Yadyapi Chura Dhatu, the Guna there, it gets Guna not because of the Ktavatu, but because of the Nich. Okay, so you have the Nich Pratyaya. Nijanta Dhatavaha ityukte, Nich iti Pratyayaha Bhavati. Nichaha karanena tatra gunaha bhavati. Ataha asmakam tingante yadrisham rupam bhavati. Tadrisham eva atrapi bhavati. So, for nijantas, the general guideline is we take the tinganta form as the, you know, the base and then give similar forms. Because everywhere, the first pratyaya we add is nich. So, whatever the karya operations which take place because of nich will always happen. Okay. So, before any other pratyaya comes into contact, nich will be there. Okay. So, it is usually safer to look at the tinganta and take the similar form. So, chorayati becomes choritavan. So, it will not be churitavan. Okay. There is no guna nishedha. Because the guna is happening before the nich, I mean, when followed by the nich pratyaya, even before we add the tavatu. So, kshalayati, kshalitavan. Kathayati, kathitavan. So, yatha nijante, tathaiva bhavati. Ganayati, ganitavan. Tolayati, tolitavan. So, these are all swarthe niche. That is, dhatus which belong to the 10th gana, which get the niche without any change in meaning. We also have the prerenarthaka niche. So, pathayati. Patati, pathayati. So, read to make somebody read. So, tatrapi, सेट रूपमेव भवति पाठितवान् दापयति दापितवान् सो दापयति इज टू मेक समबडी गिव ददाति दापयति एवं रोदयति रोदितवान् सो इफ यू हैव रुदितवान इट मींस ही क्राइड रोदितवान ही मेड समबडी एल्स क्राई ही कॉज्ड समबडी एल्स टू क्राई भोजयति भोजितवान् सो भुक्तवान भोजितवान् गमयति गमितवान् सो गतवान गमितवान् सो फॉर प्रेरणार्थक यू सी एवरीवेयर पठितवान पाठितवान् दत्तवान दापितवान् रुदितवान रोदितवान् भुक्तवान भोजितवान् गतवान गमितवान् सो देयर इज द चेंज इन मीनिंग So the addition of nich gives the meaning of to make somebody else do the act, not doing the act oneself. Okay. So everywhere, whether it is swarthe nich, athava prerenayam nich, idagamaha bhavati. So idanim samskritena anuvadaha karaniyaha angla bhashaya vakyam diyate. तस्य संस्कृतानुवादः करणीयः ये वक्तुमिच्छन्ति वदन्तु महादेवन महोदय
नमस्ते
हाँ
The women wash vessels in the river. Nāryaha nadītīre ātrāni
prakṣālitavatyaha. Mahilāha athava nāryaha nadyām pātrāni kṣālitavatyaha prakṣālitavatyaha samānam.
The two thieves stole gold from the rich man's house. Chorau dhanikasya grihat swarnam
चोरयति
चोरितवन्तौ
चोरौ धनिकस्य व्हाट डिड यू से सॉरी द फुल सेंटेंस गृहात् वर्णं चोरितवन्तौ चोरौ धनिकस्य गृहात् स्वर्णं सुवर्णं समानं चोरितवन्तौ सम्यक् शैलजा भगिनी
नमो नमः द टीचर टॉट द स्टूडेंट्स वेल शिक्षकः छात्रान् सम्यक् पाठितवान्
सम्यक् पाठितवान् सम्यक् बोधितवान् अध्यापितवान् सो एनीथिंग निजन्त नेक्स्ट वन
द बॉय मेड हिज सिस्टर क्राई बालकः तस्य भगिनीं रोदितवान्
सो बालः सो भगिनीं सहोदरीं अनुजाम् अनुजाम् इज specifically younger sister roditavan made her cry dhanyavadah sharada magini
I counted the number of stars in the sky aham tara Ganita Vati
In the sky आकाशे आकाशे ताराः तारा शब्दः स्त्रीलिङ्गः नक्षत्राणि इति भवति सो ताराः गणितवती और गणितवान् एवं नक्षत्राणि गणितवती और गणितवान्
यशोदा फेड कृष्ण यशोदा कृष्णम् पालितवती
भोजयति
भोजितवती
यशोदा कृष्णं भोजितवती
मै फ्रेंड्स नरेटेड द इंसिडेंट टू मी मम
सख्यः
मम सख्यः इंसिडेंट
वार्ताम् वृत्तान्तम्
वृत्तान्तम् कथितवत्यः
मम सख्यः वृत्तान्तम् कथितवत्यः ऐ हव् रिटन् समथिङ्ग् द आन्सर् गिवन् हियर् इस् राङ्ग् सख्यौ ऐ थिङ्क् ऐ हेड् इन् मैण्ड् टु गिव् इट् इन् द्विवचनं सो कथितवत्यौ आर् सख्यः कथितवत्यः if it is in strilinga or suhrudau kathitavantau dhanyavada suhrudah kathitavantah if it is bahuvachana if it is dvivachana suhrudau kathitavantau so set dhatunam samanya rupani drishtani अनिट् धातूनां सामान्यरूपाणि पश्यामः आप् आप्तवान् सो प्राप्तवान् इत्येवं क्षिप् क्षिप्तवान् नृत् नृत्तवान् सो वि जस्ट् एड् द धातु टु तवत् यत् यत्तवान् सो यतते प्रयत्नं करोति इत्यर्थे यत्तवान् प्रयत्तवान् इत्येवं भवति So, we are just adding the dhatu to the pratyaya without any changes. Saha bharam vodhum prayatate. He tries to lift the load. Kartha. Ye vaktum ichanti. Meenakshi. You... I am unable okay
can you hear me saha bharam sodum
odhum
odhum prayat prayatna
prayatta प्रयत्
प्रयत्तवान्
प्रयत्तवान् सः भारं वोढुं प्रयत्तवान् हि ट्रैड् टु लिफ्ट् द लोड्
ताः सम्यक् नृत्यन्ति ताः सम्यक् नर्तितवत्यौ
No, nrita, there is no idagama. So, nrita.
Nrita vatyam.
No, nrita vatyaha. Vatyaha, bahuvachanam. So, nrita vatyaha.
Nrita vatyaha.
Saha samyak nrita vatyaha.
Vayam dhanam.
प्राप्तवन्तौ वयं बहुवचनं
प्राप्तवन्ताः
स्वयं धनम्
प्राप्तवन्तः
प्राप्तवन्तः वयं धनं प्राप्तवन्तः सम्यक् अग्रे शोभा भगिनी यू हैव टू अनम्यूट योरसेल्फ
नमस्ते वानराः फलानि क्षिपन्ति वानराः फलानि क्षिप्तवन्तः
क्षिप्तवन्तः वानराः फलानि क्षिप्तवन्तः
राक्षसौ वरेण दृप्यतः राक्षसौ वरेण दृप्यवन्तौ
दृप्तवन्तौ सो दृप्यति इस् टु बी अरोगेंट ओके सो दे वेर अरोगेंट बिकॉज ऑफ द वर सो दृप्तवन्तौ सो दृप इज इन द दर्प अहंकारः इत्यर्थे
मुनयः फलमूलैः तृप्यन्ति मुनयः फलमूलैः तृप्तवन्तः
सो तृप्यति इज टू बी सैटिस्फाइड विद जस्ट फ्रूट्स एंड रूट्स एटसेट्रा फलमूलैः धन्यवादः सो एवम् अनिट् धातूनां सामान्यतः केवलं तकारस्य योजनं भवति सो दट विल हैपन इन सम केसेस बट इन मोस्ट ऑफ द केसेस व्हाट हैपेंस इज देयर विल बी ए हल संधि बिकॉज तकार इज हल and the dhatu will also end in a hal samanyatah hal sandhih bhavati yatha asmabhih drishyamanam asti tumun trich ktva sarvatra drishtam tadrishah eva hal sandhih ktavatu pratyaye api bhavati krish krishtavan so takarasya sthane takarah bhavati krishtavan drish drishtavan तत्र शकारस्य षकारः तकारस्य तकारः इत्युभयं भवति लभ लब्धवान् क्रुध क्रुद्धवान् त्यज त्यक्तवान् भुज भुक्तवान् दह दग्धवान् दुह दुग्धवान् लिह लीढवान् गाह गाढवान गाहते इज टू डाइव और टू एंटर इनटू वाटर छिद छिन्नवान नुद नुन्नवान सो दीज आर अ बिट स्पेशल बिकॉज देयर इज अ नकार आल्सो कमिंग इन फॉर द खतवतु एंड यू हैव द नकार फॉर द धातु आल्सो सो छिन्नवान नुन्नवान एटसेट्रा But the other hal sandhis are what we see always, like say, drashtum, drishtva, drishtavan, labdhum, labdhva, labdhavan, evam sarvatra etadrishaha hal sandhayaha bhavanti. Taha idanim, we will do a comparative thing of tumun, ktva and ktavatu. Yatha labhadhatohu, tumunantam kim bhavati, ktva pratyantam kim bhavati. Ktavatu pratyantam kim bhavati. So the common factor among all these is all the pratyas start with t. Right? So in both ktva and ktavatu, the moment you take away the kakara, which is its samya, you have the takara. Okay? So everywhere it starts with t. So the hal sandhi will be similar. You have the letter at the end of the dhatu joining with the takara. Okay? So mostly it will be similar forms. So you have to tell the forms of tumun ktva and ktavatu. Okay? Atra nunnavan ityatra kaha arthaha iti prashnaha is to push. Nudati is to push. So nunnavan is to pushed. He pushed something. So idani ne vaktum ichchanti. So anybody who has not attempted so far today? Sharada Magini, Sharada Vishwanathan.
Labdhum, Labdhva, Labdhavan or Labdhavati.
Labdhum, Labdhva, Labdhavan, Labdhavati.
Yaj, Tyaktva, Tyaktum, Tyaktva, Tyaktavan, Tyaktavati.
Samyak. Tyaktum, Tyaktva, Tyaktavan, Tyaktavati.
Dah, Dagthum, Dagdhva, Dagdhavan, Dagdhavati.
Samyak. Dagdhum, Dagdhva, Dagdhavan, Dagdhavati. Samyak. So, Agre. Subhash, Mohane.
Gaha.
Hmm.
Gadhum.
Hmm.
Gadhva, Gadhavan, Gadhavati.
Samyak. So, Gadhum, to dive or to enter. Gadhva, Gadhavan, Gadhavati.
Bhaj. Bhaktum, Bhaktva, Bhaktavan, Bhaktavati.
Samyak. Bhaktum, Bhaktva, Bhaktavan, Bhaktavati. Dhanyavadaha. Ramanujam Mohanay.
Drish. Drashtum.
Mm.
Drashtva.
Drishtva.
Drishtva and Drishtavan.
Ah. Drashtum, Drishtva, Drishtavan, Drishtavati.
Duh. 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 Dugdhum.
Dugdhum.
Dugdhum. Dugdhva.
Dugdhva.
Dugdhva. Dug. Dug. Dugdhavan.
Dugdhavan. Samyak. So, dugdhum, dugdhva, dugdhavan, dugdhavati. Dugdhavan.
Bhuj Bhoktum Bhoktva
Bhuktva
Bhuktva Bhuktavan
Bhuktavan Bhuktavati Bhoktum Bhuktva Bhuktavan Bhuktavati. Dhanyavadaha.
Thank you.
As you can see here, in these cases, in the previous cases, all three were the same. So, if you look at the previous slides, all the forms are the same, right? Labdhum, Labdhva, Labdhavan, Tyaktum, Tyaktva, Tyaktavan, Bhaktum, Bhaktva, Bhaktavan. So, the sandhi is the same. But for some cases, the guna, wherever you have guna or a similar karya, it's a difference. So, you have guna for tumun, whereas for ktva and ktavatu, there is no guna. So, dogdhum, Dugdhva, Dugdhavan. Bhoktum, Bhuktva, Bhuktavan. Similarly, Drashtum, the Ra comes only in Tumun. Forktva, Arptavatu, you don't have it. Okay? So, the Sandhi is the same. The Sandhi part of it is still the same. The Guna will not apply for Ktva and Ktavatu. Okay? So, the moment we think of Ktva and Ktavatu, think of restricting the Guna. Okay? So, Lih. Prema. Bhagini. Prema. Bhagini. Na Shruyate. Cannot hear you. Na Shruyate. We cannot hear you. Okay. Kalyana Krishna Mohanay.
I can hear.
Yeah.
Good evening. Ledhum. Lidhva.
Bidhva.
Bidhva. Lidhavan.
Lidhavan.
Lidhavan. Lidhavati.
Ledhum. Lidhva. Lidhavan. Lidhavati. So, Ktva and Tavatu are the same. Whereas for Tumun, we have the guna. It is to lick. Lihati is to, ledhi is to lick. Okay.
Chedum.
Chetum.
Chetum. Chetva.
Chittavan. Chinnavan.
So, Chinnavan. Chinnavati.
Samyak. Chinnavan. Chinnavati. So, this is one case where all three are different. So, chetum, you have the guna, chitva, so there is nothing. Chidatva, the sandhi becomes chitva. As for ktavatu, there is a nakara. So, chid, chinnavan, bhid, bhinnavan, tud, tunnavan, nud, nunnavan. So, wherever there is nakara, dakara in the dhatu, for ktavatu, you get the na. Okay. Dhanyavadaha. So we'll see a few more special dhatus. Anunasika lopaha. Yatra dhatohu vidyamanasya anunasika varnasya lopaha bhavati. Yatha gam gatavan. So makara goes away. So we have gam tavan gatavan. Nam tavan natavan. Yam yatavan. Niyatavan. So, niyamate, so niyamayati, so to control. So, you have niyatavan. Okay. Han hatavan. Man matavan. So, in all these cases, the final anunasika is getting dropped. Gatavan, natavan, yatavan, hatavan, matavan. Okay. So, bandh. So, the penultimate anunasika is also gets dropped. So, baddhavan. Damsh, so the anuswara, which is actually nakara. So, dashtavan. Bhramsh, bhrashtavan. Granth, grathitavan. So, this is a set dhatu. Still, the nakara goes, so you have grathitavan. Grathitavan is to, author a text or to, to make a string together. Grathnati. Manth mathitavan. So, eta eshu sarveshu ante vidyamanasya athava upadhayam vidyamanasya anunasikasya lopaha bhavati. So, in these examples, there are two blanks. Riktasthanam puraniyam. Prathama sthane ktvantam athava lyabantam. Dvitiya sthane ktavatvantam. Okay. So, Ramaha lankam kim gamdhatohu ktavantam rupam. Ravanam han. Han dhatohu ktavatvantam rupam. So, Maithili.
Ramaha lankam gatva ravanam hatavan.
Samyak. Ramaha lankam gatva Ravanam hatavan.
Devasuraha Mandara Parvatam Vasukina Badhva Shingasadaram Mathavantaha.
Mathita Vantaha.
Mathita Vantaha.
Badhva Mathita Vantaha. Dhanyavadaha. So, as you can see, the Anunasika Lopa happens both for Ktva and for the Ktavatu. Okay. Anybody else wants to try? Suryanarayana Mahone, you have to unmute yourself.
Namaskar. कालिदासः पार्वती परमेश्वरौ प्रणम्य रघुवंशं ग्रहितवान्।
सम्यक्। सो प्रणम्य पार्वती परमेश्वरौ प्रणम्य अथवा प्रणत्य, बोथ फॉर्म्स आर करेक्ट फॉर ल्यप। ग्रथितवान्, रघुवंशं ग्रथितवान्। सो कालिदास बोथ टू पार्वती परमेश्वर एंड ऑथर्ड द रघुवंश, क्रिएटेड द रघुवंश इत्यर्थः।
योगी इंद्रियाणि नियम्य मनः बद्धितवान्।
बद्धवान्, मनः बद्धवान्। सो इंद्रियाणि नियम्य अथवा नियत्य मनः बद्धवान्। सो ही कंट्रोल्ड हिज सेंसर्स एंड टाइड द माइंड इत्यर्थः। धन्यवादः। सो अग्रे पश्यामः संप्रसारणम्। सो दिस इज अनदर कार्य विच वी हैव बीन सीइंग फॉर क्त्वा, फॉर ल्यप, एंड अगेन वी हैव इट हियर। सो वेरेवर द प्रत्यय इज कित्, बेसिकली फॉर सम ऑफ द धातुस वी हैव संप्रसारण। सो संप्रसारण मीन्स रिप्लेसिंग द यण लेटर्स विथ इक लेटर्स, दैट इज द य इज रिप्लेस्ड बाय इ। सो र रेफ इज रिप्लेस्ड बाय ऋकार, वकार इज रिप्लेस्ड बाय उ। सो दट चेंज, ओके, इट इज द रिवर्सल ऑफ यण संधि, सो दट इज कॉल्ड संप्रसारण। सो यज धातोः इष्टवान्, सो य बिकम्स इज एंड देन देयर इज अ संधि इष्टवान्। सो स्वप सुप्तवान्, सो व बिकम्स उ। वच उक्तवान्, वद उदितवान्, वप उक्तवान्, वस उषितवान्, वह ऊढ़वान्, ह्वे आह्वाति आह्वयति इति हूतवान्, ग्रह गृहीतवान्, सो र बिकम्स ऋ, प्रच्छ पृष्टवान्, सो यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेफस्य स्थाने ऋकारः। सो दट इज कॉल्ड संप्रसारण एंड दट चेंज विल हैपन हियर। वहति इज टू कैरी, सो ऊढ़वान्, भारम ऊढ़वान् इत्यादि। वपति इज टू सो सीड्स, बीजम उपतवान्। सो यजति इज टू सैक्रिफाइस, स्वपिति टू स्लीप, वक्ति वदति बोथ ऑफ देम टू स्पीक, वपति टू सो सीड्स, वसति टू लिव, वहति टू कैरी, ह्वे आह्वाने टू इनवाइट और टू कॉल आउट, हूतवान आहूतवान इत्यादि। ग्रह टू टेक, ग्रह उपादाने, सो गृहीतवान्, प्रच्छ इज टू आस्क, राइट। सो भूतकाले परिवर्तयत, वर्तमानकाले वाक्यं दीयते, भूतकाले अस्य परिवर्तनं करणीयम्। Those who want to try, please raise your hands. Aruna, you have to unmute yourself.
Vrityah varam udhavantah.
Vrityah ekavachanam.
Oh, Vrityah ekavachanam. Varam ऊढ़वान्,
ऊढ़वान्, भृत्यः भारम् ऊढ़वान्।
बालिका सुखेन स्वपति, बालिका सुखेन सुप्तवती,
सुप्तवती, सुखेन सुप्तवती। सम्यक्।
सागरः अश्वमेधेन यजति, సగరః అశ్వమేధేన ఇష్టవాన్.
సమ్యక్. అశ్వమేధేన ఇష్టవాన్. సమ్యక్. ధన్యవాద. హిమాంశు.
హరీష్ చంద్రః సత్యమేవ ఉక్తవాన్.
ఉక్తవాన్. వక్తి ఉక్తవాన్.
శిష్యః గురుం సందేహం పృష్టవంతః.
పృష్టవంతః. శిష్యాః గురుం సందేహం పృష్టవంతః.
పాండవః ఇంద్రప్రస్థే ఉషితవంతః.
ఉషితవంతః. పాండవః ఇంద్రప్రస్థే ఉషితవంతః. ధన్యవాదః. ఎనీబడీ ఎల్స్? ఓకే. నందకుమార్ మహోదయ
నమస్తే. సా సఖీం ఆహ్వయతి. సా సఖీం సఖీం ఆహూతవతి.
ఆహూతవతి. సా సఖీం ఆహూతవతి. షీ కాల్డ్ హర్ ఫ్రెండ్.
కృషకాః బీజాని వపంతి. కృషకాః బీజాని ఉప్తవంతః.
ఉప్తవంతః. కృషకాః బీజాని ఉప్తవంతః.
ఉప్తవంతః.
ధన్యవాదః. మైథిలి. మైథిలి.
దేవీ భక్తాన్ అనుగ్రహీతవతి.
అనుగ్రహీతవతి. గృహీతవతి. అనుగృహీతవతి. భక్తాన్ అనుగృహీతవతి.
తౌ తథా సంస్కృతేన అనుక్తవంతౌ.
వద్ అనూదితవంతౌ.
అనూదితవంతౌ.
అనూదితవంతౌ. తౌ కథాం సంస్కృతేన అనూదితవంతౌ. సమ్యక్.
ఐ హావ్ అ క్వశ్చన్. యత్ర హకారః అస్తి తత్ర ఉ దీర్ఘ భవతి
వా? అన్య నియమాః అపి సంతి. ఇట్స్ నాట్ ఫర్ ద హకార, ఇట్ ఇస్ బికాస్ ఆఫ్ ద ఢకార. ఐ మీన్ ద హకార విచ్ గెట్స్ కన్వర్టెడ్ టు ఢకార అండ్ దెన్ ఇట్ గెట్స్ డిలీటెడ్ బికాస్ ఆఫ్ విచ్ దర్ ఇస్ అ దీర్ఘ. ఇట్స్ బికాస్ ఆఫ్ ద ఢకార. సో అగ్రే గచ్చామః. అంతే కానిచన విశిష్ట రూపాణి. సో ఐ జస్ట్ కలెక్ట్ సమ్ ఆఫ్ ద ఫార్మ్స్ వేర్ దెర్ ఇస్ సంథింగ్ స్పెషల్ అబౌట్ ద ఫార్మ్. ఓకే. Say for example, pachu becomes pakvavan. So it's not paktavan or pachitavan. So pakvavan. So jan, jatavan. So jayate, jatavan. Similarly, khan becomes khatavan. It is to dig. Khanati is to dig. Khatavan. Sah, sodhavan. Adu, జగ్ధవాన్. సో అత్తి ఇస్ టు ఈట్. తస్య తవత్వంతం భవతి జగ్ధవాన్. శాస్ శాస్తి టు టీచ్ శిష్టవాన్. తక్ష తక్ష్ణోతి ఇస్ టు స్క్రేప్ ఆర్ టు పీల్. సో తష్టవాన్. దివ్ దీవ్యతి ఇస్ టు ప్లే స్పెసిఫికలీ టు గ్యాంబల్. Dyutavan. So that is where we have the word dyuta is gambling. So dyutavan. Siv. sivyati, to stitch or to sew, syutavan, murch, to faint, murtavan. Okay. So there are all specific changes which are specific to ktavatu and to that dhatu. Okay. So just a collection. So punaha, bhavishyat kale vakyam diyate, tasya bhutakale parivartanam kartavyam. So mata bhojanam pakshyati. Mother will cook tasya bhutakale. So Harmandar Singh.
Mata bhojanam shati
pach dhatu ho pakva.
Mata bhojanam pakvavati.
Pakvavati. Mata bhojanam pakvavati.
Karmakara kupam kanishyati khan. So there is khanita.
Kha.
Karmakara.
Special form khata.
Khatavan.
Karmakaraha kupam. Sorry, there is a typing error. Kupam khatavan. So he dug a well. Ityarthaha. Kupam khatavan. Samyak. Dhanyavadaha. Padmanabhan.
Dasagatasya putraha. Jatavantaha.
Right. So we can also say jataha, that is more common, but jatavantaha is also correct.
Chakunihi kapataihi akshaihi dyutavan.
Chakunihi kapataihi akshaihi dyutavan. Chakuni gambled with the dice, which were magical dice. Dhanyavadaha. Ramanujam.
Taha kastani sahishyanti. Taha kastani soditavati. Sodavatyaha.
Taha kashtani sodhavatyaha.
Sa vastrani sivyati. Sa vastrani sidavatyaha. Syutavati.
Sa vastrani syutavati. Samyak. Dhanyavadaha. So with this we have covered the ktavatu forms of most of the dhatus that we have under conservation. As I said, ktavatu is a very wide ranging pratyaya with different rules. So we have covered the forms for most of the dhatus that we are taking, around 400 dhatus that we are normally covering. So I have also shared the spreadsheet. So please go through the spreadsheet and keep reading the form so that you can get familiar with them. So as the final exercise in Ktavatu, we will see a story from the Panchatantra. Okay. So there are blanks with the dhatu and the pratyaya. Okay. It is mostly Ktavatu, but sometimes also the other krit pratyayas that we have seen. So riktasthanam puraniyam. You have to fill the blanks with the correct form. Okay? So it is a story, a pretty famous story from the Panchatantra. Shailaja Magini.
Namo namaha. Ekasmin pradeshe ekaha mahan vatavrakshaha asi. Tatasmin vrikshe kaka dampati ushitavantau.
Ushitavantau.
तस्य वटवृक्षस्य कोटरे एकः कृष्णसर्पः अपि उषितवान्
उषितवान्
यदा यदा काकी शावकान् प्रसूतवती तदा तदा कृष्णसर्पः कोटरात् बहिः आगम्य तान् शावकान् भक्षितवान् अनेन तौ काकौ महान्तं दुःखं प्राप्तवन्तौ
प्राप्तवन्तौ सम्यक् वेरि नैस् सो द स्टोरि बिगिन्स् सो एकस्मिन् प्रदेशे एकः महान् वटवृक्षः आसीत् इट्स् अ ह्यूज् बानियन् ट्री तस्मिन् वृक्षे काकदम्पती सो दम्पती इस् अ नित्यद्विवचनान्त वर्ड् जाया च पतिश्च दम्पती सो अ कपल् सो अ कपल् आफ् क्रोस् उषितवन्तौ वेर् लिविङ्ग् तस्य वटवृक्षस्य कोटरे कोटर इस् अ हालो आफ् द ट्री एकः कृष्णसर्पः अ कोब्रा अपि उषितवान् सो हि वाज़् आल्सो लिविङ्ग् देर् यदा यदा काकी शावकान् प्रसूतवती शावक इस् अ बेबी बर्ड् सो वेन् एवर् इट् गेव् बर्त् टु बेबी बर्ड्स् तदा तदा कृष्णसर्पः कोटरात् बहिः आगत्य अथवा आगम्य रूपद्वयं भवति तान् शावकान् भक्षितवान् सो हि एट् अप् द बेबी बर्ड्स् whenever they were born. Anena tau kakau mahantam dukham praptavantau. So because of this, those crows attained great sorrow. Okay. Agre pashyamaha. Okay. वेङ्कटेश्वरन्
समीपे अन्यस्य वृक्षस्य मूले एकः शृगालः आसीत् स काकदं दम्पत्यौ प्रिय सुहृद् सुहृद् तौ काकौ तस्य समीपं
गत्वा
उक्तवन्तौ उक्तवन्तौ हे मित्र सः दुष्टात्मा कृष्णसर्पः आवयोः सर्वान् बालकान् सर्वान् बालकान् भुक्तवान् आवाभ्यां किं कर्तव्यं किं कृतवत्
कर्तव्यम्
कर्तव्यं
किं कर्तव्यं
कर्तव्यं किं कर्तव्यं कश्चित् उपायं वदतु इति
सम्यक् सो समीपे अन्यस्य वृक्षस्य मूले सो नियर् बै अट् द बेस् आफ् अनदर् ट्री एकः शृगालः आसीत् सो देर् वाज़् अ जाकल् सः काकदम्पत्योः प्रियसुहृत् He was a dear friend to the crows. Tau kakau tasya samipam gatva uktavantau. He mitra saha dushtatma krishna sarpaha. That evil cobra avayohu sarvan balakan bhuktavan. He ate up. Avabhyam kim kartavyam. What should we do? Kanchit upayam vadatu. So please tell a plan. इति काकौ शृगालस्य समीपे उक्तवन्तौ Meenakshi.
Saha Sudalaha Uttavan
Kathadhatu
Kachitavan Sarpayukte Grihe Niveshya
Lyut is like Bhojana, etc. Patanam Evam Vasudhatoho.
Nivasanam.
Nivasanam.
Nivasanam. Mrityeva ityatra na samsayaha. Kintu chinta mastu upayena saha lubdaha hantum shakyaha.
Hantum shakyaha.
Ityatehi. Upayena jayo yadruk ripoho tatrun na heti bihi. Upayagnyo alpakayopi na surehi paribhuyate.
Samyak. So, saha shrigalaha kathitavan. So, that jackal said, sarpayukte grihe nivasanam mrityureva. So, to live in a house which is infested by a serpent is as good as death. Ityatra na samshayaha. Kintu chinta mastu upayena saha lubdhaha. Lubdhaha, a greedy one. So that greedy serpent hantum shakyaha can be killed with plan, with upaya. Uchyatehi. So he tells a verse. Upayena jayaha yadrak ripoho tadrak na heti bhihi. So heti means ayudham. So yadrak jayaha. So the victory ripoho over an enemy which can be achieved through upaya tadrak heti bhihi na. So such a victory cannot be achieved by weapons. Okay, so a plan or a strategy is better than the weapons. Upayagyaha. So some he who knows strategy or a plan to act with intelligence, alpakayaha api. So even though he is very small in size, shuraihi na paribhuyate. He is not defeated even by the brave or the valorous. So if you know how to act intelligently, even without weapons, even being very small or minute, you can win. Ityarthaha. Upayena jayo yadruk ripohu tadruk na heti bhihi. Upayagyaha alpakayopi na shuraihi paribhuyate. So, agre. Sridhar.
Namaste, Mahat. Kakaha, Pushtavan. Om Kataya Tarihi. Katam Saha Dushta Sarpaha Maraitum Shakyaha. Sridhalaha Uktavan. Yes, Ming.
Vad Dhatuhu.
Vad. Vad.
Uditavan.
Yasmin Nagare Kaschid Raja Nivasati San Nagarangachadu. Tatra Kasyavi Danikasya Amat Yadehe Griham Gatva Yadasaha Anavadana Bhavati Tadatasya Kanaka Sutram Haramba Grihitva Asya Sarpasya Kodare Kipadu. Choritam haram grahitum yecha agachanti te krishna sarpo marayishyanti iti.
Ha, samyak. Dhanyavada. So, ha. So, kakaha prishtavan. Bhomitra kathayatarhi katham saha dushta sarpaha marayitum shakyaha. So how can that serpent be killed? Shudalaha uditavan. So vadudhatoho uditavan. Vachadhatoho uktavan. Samanaha arthaha. Yasmin nagare kashchit raja nivasati tannagaram gacchatu. So go to a city where there is a king or some royalty. Tatra kasyachit kasyapi dhanikasya amatyadehe griham. Amatyaha minister. So some rich minister or some such royal person. Tasya griham gatva yada saha anavadhanaha bhavati. So when he is not paying attention, tada tasya kanakasutram haram va grihitva. Tasya sarpasya kotare kshipatu. So throw it in the hollow of the serpent. Choritam haram grahitum. So you can see, grahitum, there is no samprasarana. So grihitva, for ktva and for ktavatu, there will be samprasarana. Choritam haram grahitum ye janaha agachanti. So those poor people who will come to retrieve the stolen necklace, te Krishna sarpam marishyanti. Iti shrugalaha uktavan, uditavan. Okay. Agre. Sharada Gopalan Lagin. You have to unmute yourself. Ah.
Tat Krishwa Tatanameva Rasa Dantati Uddhitavan.
Uddayitavantau or Uddinavantau. So there are two D dhatus. So one of them would be Uddayitavantau or Uddinavantau. Both of them are correct.
Sataha kaki yekam sarovaram drishtavati.
Drishtavati.
Tatra kachit rajastriyaha Avaranani samite silatale sapayitva jalakridam kurvantisma tatra gatva sa ekam kanakasutram grihitva susaha griham prati prasthisavati Yetat drishtva sasam srinam rakshanam
nulla pachakaha nayakaha
rakshakaha dandam grihitva satvaram kakim anusritavantaha
samyak
Kaki sarpako tare tat kanaka sutram prakshipya dure sthita.
Prakshipya dure sthita. Samyak. Tat shrutva tat kshanameva kakadampati uddayita vantau. So they flew away. Tataha kaki ekam sarovaram drishtavati. Tatra kashchit rajastriyaha. So some princesses or royal women. Abharanani samipe shilatale sthapayitva. So keeping their ornaments on a stone bench nearby. Jalakridam kurvantisma. We're playing in water. Tatra gatvasa ekam kanakasutram grihitva. So a golden chain or a necklace grihitva. Svasyaha griham prati prasthitavati. So she left for her house. Etad drishtva tasam strinam rakshakaha dandan grihitva. So taking sticks satvaram. So quickly kakim anusritavantaha. So they followed the crow. Kaki sarpakotare tat kanaka sutram prakshipya. So throwing it in the hollow of the sarpa dure sthita. So she stayed far away safely. So the last part of the story. Himanshu Mahone.
Yes, Rajapurushaha Agamya Tat Kotaram Avalokitavantaha.
Samyak, Avalokitavantaha.
Tasmin Samaye Eva Krishna Sarpaha Bahi Agata Agatavan. Te Dandena Tam Sarpam Hatva Kanaka Sutram Sui Kritya Prati Gatavantaha Tataha Param Pakadampati Tatra Sukhena Vasam Kritvan, Dampati is singular, right?
No, dual.
I had a big discussion with people about that. They think Dampati should be singular. But anyway,
no.
Kaka Dampati. Dr. Bhatt, if you know. Dr. Bhatt.
Oh.
Dr. Bhatt, yeah, he didn't let me use it in dual. He said, oh, you no. guys use English. He said, you do everything from English to Sanskrit. In Sanskrit, no, it is Dampati singular.
No, it is certainly because it is a Dvandva Samasa. It is Jaya Acha Patishtha. Like you would say, Ramashtha Lakshmanashtha Rama Lakshmanau. So, Jaya Patishtha Dampati. So, Pati Hi Pati. It's a Dvivacha. Nitya
Dvivacha. He corrected me. He said it should be single. But anyway, Tataha Param, in your class, I follow your instruction. Sataha Param Aka Dampati Tatra Sukhena Vasam Kritavantau.
So there is an interesting shloka regarding this. I can even quote that. So Neelakantha Dikshita, who is the composer of the Neelakantha Vijaya Champu, so his Mangala shloka reads, Vande Vanchita Labhaya Karma Kim Tanna Kathyate Kim Dampatim Iti Bruyam Utaho Dampati Iti. So he asked the same question. Yes. Vande Vanchita Labhaya. So I bow down for getting my desires. Karma Kim. What is the Karma Pada? Na Kathyate. I will not tell. Why? Kim Dampatim Iti Bruyam. Should I say Dampatim or should I say Dampati? His question is not for the confusion of the form, because he wants to bow down to Parvati Parameshwara. So according to him, they are not different. They are not two different people, Ardhanarishwara. So he wants to say Dampatim. But grammatically it is wrong. It has to be Dampati, Nitya Dvivachana Shabda. So it is called a Vakrokti. Neelakantha is known for that, Vakrokti.
Yeah.
So it is an Alankara. So it is grammatically it has to be Dampati. But he thinks, since it is Ardhanarishwara, it is one person, how can I use a dual? So because of that, he uses it. But you can ask, I don't see, you are talking about H.N. Bhatt, is it?
Yes.
Oh, it sounds almost impossible, but you can again ask him.
He also quoted a shloka in response. I did it to her, but anyway.
Okay.
Thanks.
Yeah. So, coming back to the story. Rajapurushaha Agamya Athava Agatya. So, they came. Tat Kotaram Avalokitavantaha. So, they saw that hollow. Tasmin Samaye Ekaha Krishna Sarpaha Bahihi Agatavan. So, at the same time, the cobra came out. Te Dandena, Te Nama, Te Rajapurushaha, those gods, Tam Sarpam Hatva, so killing that serpent, Kanaka Sutram Svikritya, so taking the golden chain or the necklace, Pratigatavantaha, they returned, Tatah Param Kakadampati, तत्र सुखेन वासं कृतवन्तौ. सदंपति शब्दः नित्यद्विवचनान्तः. सो दोस टू क्रोस लिव्ड देयर हैप्पीली. सो दस एंड द श्लोक दिस वन एंड देयर इज अ श्लोक एंड द पंचतंत्र. उपायेन हि तत्कुर्यात् यन्न शक्यं पराक्रमैः काक्या कनकसूत्रेण कृष्णसर्पो निपातितः. सो उपायेन हि तत्कुर्यात् यन्न शक्यं पराक्रमैः. सो दट विच इज नॉट पॉसिबल टू अचीव बाय पावर बाय ब्रूट फोर्स सो शुड बी अचीव्ड थ्रू स्ट्रैटेजी. उपायेन कुर्यात् यथा काक्या कनकसूत्रेण कृष्णसर्पः निपातितः. लाइक द क्रो गॉट रिड ऑफ द कोब्रा विद द हेल्प ऑफ द गोल्डन चेन. सो दट इज अ स्टोरी फ्रॉम द पंचतंत्र. द वर्ड्स आर नॉट एग्जैक्टली फ्रॉम द पंचतंत्र. द स्टोरी इज एज इट इज. सो सम वर्ड्स आई वुड हैव चेंज्ड फॉर my purpose. I mean, I had to use Kridantas. So, the Panchatantra does not use, especially Ktavatu, it doesn't use as much. But that is the story and the shlokas are from the Panchatantra. Okay. So, there are a couple of questions here. Ravanaha. Eha sarvan roditavan saha ravanahava iti. Eha sarvan ravayati. Ravayati is to make them cry out. So, Rauti is to cry. So, Ravayati, he who makes everybody cry out, is Ravana. Okay. So, is there a simple rule by which we can figure out the Nijanta forms of the Kridanta? I mean, you mean the Kridanta or Nijantas are, as I said, it's fairly simple. No? I mean, you just take the Tinganta form of the Nijanta, like say Chorayati. So, from there we go to the Kridanta. So, like Chorita, Bhojita, etc. I mean, if assuming you know the Nijanta forms of the original Dhatu, that is the Lat. If you have the Lat Ekavachana, getting to the Kridantas is fairly easy. So, to know that itself, you will have to know the Nich. What happens when there is a Nit Pratyaya. Okay. So, for that, if you know Nvul, it is easy, the forms. I mean, it's basically Vriddhi. Nich doesn't do much except the Vriddhi and Guna. So, you just have to know where there is Vriddhi and where there is Guna. So, otherwise, Nijantas are usually simpler because they're all common. I mean, they have a regular form. Usually set and usually they will have all the Guna, Vriddhi and so on. So, how to decline Dampati Shabda? It is like Ikaranta Shabda, Dampatihi, Dampati, Dampatayaha, like the Pati Shabda. Not exactly Pati Shabda, in Samasa it becomes like Hari Shabda. So it will be like Hari Shabda. Dampati is like Hari. Dampatihi, Dampati, Dampatayaha. Dampatim, Dampati, Dampatin, etc. So you will not use the Ekavachana, Jivachana, or if you are referring to many couples, you can have the Bahuvachana also. Okay. So, any other questions with Ktavatu? So, with this we end Ktavatu. Agrima Varge Kta Pratyayam Pashyamaha. So, a related Pratyaya is the Kta Pratyaya, which is much more common actually. So, we will see that in the next class. Any questions? So, if you have questions, raise your hands please. No questions. Okay. So, we'll end. But before that, two announcements from our Pathashala. So, you should have all received the mail, but just in case you missed it, we are starting a new course on the Champu Ramayana. The Champu Ramayana, the Balakanda of the Champu Ramayana. So, Champu Ramayanam, Bhojarajena Pranitam Kavyam. So, it is a Kavya, the Ramayana in the form of a Champu. That is a mixture of prose and poetry composed by Bhojaraja. So it's a very beautiful kavya and one of the most popular, especially the Balakanda and the Sundarakanda are very popular. They're there for most exams. So we're starting that from the coming Monday, that is the 23rd October. Classes will be from in the mornings, okay, Indian time. So those who are interested, you can just visit our website and you can register for the webinars. We also have a new course uploaded on the Bhagavad Gita. So a summary of the Bhagavad Gita in English. So it's a lectures given by a professor called Professor B. Mahadevan. He is a professor at the Indian Institute of Management in Bangalore. So he is a person who has read very widely. He has studied both Sanskrit, Vedanta, and of course he is a professor of management. So he gives some very good insights on the Bhagavad Gita from the point of view of Vedanta and also from the view of, you know, practical applications of it. So a series of, I think, 38 lectures which cover all chapters of the Bhagavad Gita. So it is again a free course which is available. You can register if you wish. Okay. So we'll stop with this. Gururev gatir gurumeva bhaje gurunaiva sahasmi namo gurave na guroh paramam shishurasmi guror matirasti gurau mama pahi guro. There's one question, where is the spreadsheet available? The spreadsheet, it's a Google spreadsheet. I have shared it in the last class. If you go to the sanskritfromhome.in and log in and go to the Kridanta course, the last lesson has the link to that spreadsheet. Okay, so I'll also include the link in this class also, so you can access it from there. So thank you.